इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। गुजरातप्रदेशः उत्तराखण्डराज्यस्य अनन्तरं देशस्य द्वितीयं राज्यं भविष्यति यत्र समान नागरिक संहिता प्रवर्तयिष्यति। विधानसभां सम्बोधयन् राज्यस्य विधिमन्त्री ऋषिकेश पटेलः अवदत् यत् राज्यस्य सर्वेभ्यः जनेभ्यः समानं न्यायं सुनिश्चेतुम् एक भारत श्रेष्ठ भारत इत्येतस्य परिकल्पनां साकारीकर्तुं च एकं सोपानम् अस्ति इति। मन्त्रिणा निगदितं यत् न्यायिक प्रक्रियायाः गतिं वर्धयितुं राज्यप्रशासनेन राजकोट सूरत वडोदरा जनपदानां मुख्यालयेषु त्रयाणां नवीनानां मध्यस्थ न्यायाधिकरणानां प्रावधानं कृतमस्ति। राज्ये नगरपालिकानां पञ्चायतानां च याचनानां श्रवणं मध्यस्थ न्यायाधिकरणे कर्तुमपि निर्णयो जातः। सुवर्ण मुद्राकरण योजनायाः मध्यमावधिक दीर्घावधिक सर्वकारीय निक्षेपस्य घटकाः अद्य प्रभृति निरस्ताः भविष्यन्ति। वित्तमन्त्रालयेन प्रतिपादितं यत् स्वर्ण मुद्राकरण योजनायाः निष्पादनस्य परीक्षणस्य विपण्यस्थित्याः विकासस्य च अनन्तरं एषः विरामः जातः। लोकसभया 25-2000तमवर्षीयं वित्तविधेयकम् अनुमोदितम् यस्मिन् 35 सर्वकारीय संशोधनानि समाविष्टानि सन्ति इति, यस्योद्देश्यं शुल्कस्य दैशिक विनिर्माणस्य वर्धनम् इति वर्तते। 25-26-2000तमवर्षयोः वित्तवर्षस्य कृते केन्द्रप्रशासनस्य वित्तीय प्रस्तावान् प्रभावयितुं विधेयकमेतत् प्रयुज्यते। विधेयकं समाश्रित्य केन्द्रीय वित्तमन्त्री निर्मला सीतारामन् इत्येषा उक्तवती यत् वित्तविधेयकमिदं अस्य वर्षस्य करदातृभ्यः अप्रतिमकरसाहाय्यं व्यापारे च सरलतां प्रदास्यति। ह्यः राज्यसभायाः स्वीकृतेः अनन्तरं संसदा आपत्प्रबन्धन संशोधन विधेयकं 24-2000तमवर्षीयं पारितम्। अवधेयं वर्तते यत् विगतवर्षे दिसम्बर मासे लोकसभया इदं विधेयकं पारितमासीत्। अस्य विधेयकस्य प्रयोजनं समग्रे हि देशे आपदः प्रतिक्रियायाः सज्जतायाः पुनर्प्राप्तेः च संवर्धनमिति वर्तते। एतद्विधेयकम् आपत्प्रबन्धनाधिनियमे 25-2000तमे वर्षे संशोधनं करोति। अथ च राष्ट्रियापत्प्रबन्धनप्राधिकरण राज्यापत्प्रबन्धनप्राधिकरणयोः कुशलं कार्याचरणं सुदृढीकरोतीति। पूर्वमन्त्रिमण्डल सचिवः राजीव गौबा इत्येषः नीत्यायोगस्य पूर्णकालिक सदस्यः नियुक्तः। झारखण्ड सम्भागस्य 2080-1900तमवर्षस्य भारतीय प्रशासनिक सेवाधिकारी श्रीगौबाः 1990-2000तमवर्षात् 24-2000तमवर्षपर्यन्तं देशस्य शीर्षाधिकारित्वेन कार्यं सम्पादितवान्। असौ भारतस्य कोविड 19 महामार्याः समये प्रतिक्रियाम् आर्थिक परिष्कार रणनीतयः समेत्य प्रमुखनीतिगत निर्णयानां सञ्चालनाय महत्वपूर्ण भूमिकां निभालितवान्। भारतस्य सामाजिक सुरक्षा व्याप्तिः महती वर्धितास्ति। अन्ताराष्ट्रिय श्रम संघटनस्य अनुसारं भारतस्य सामाजिक सुरक्षा व्याप्तिः 21-2000तमे वर्षे 24.4% 24.48% यावत् द्विगुणितम् अभवत्। आईएलओ इत्येतस्य विश्व सामाजिक सुरक्षा प्रतिवेदनम् उद्धृत्य केन्द्रीय श्रम मन्त्री मनसुख मांडवीयाः कार्यक्षेत्रे सामाजिक सुरक्षा लाभानां विस्तारे कृत प्रगतिम् उल्लिखितवान्। भारतेन स्वस्य प्रथमं स्वदैशिकं चुम्बकीयानुनाद इमेजिंग एमआरआई इत्येतस्य यन्त्रस्य विकासः कृतः। यतोहि नवदिल्ल्याम् अखिल भारतीयायुर्विज्ञान संस्थाने अक्टूबर मास पर्यन्तं परीक्षणार्थं संस्थापितं भविष्यति। आईपीएल प्रतिस्पर्धायां ह्यः रात्रौ पंजाब किंग्स दलेन गुजरात जायंट्स दलं 11 धावनांकैः पराभूतम् इति वार्ताः।